ओम नमो भगवते वासुदेवाय। अथ षोडशोऽध्यायः। मैत्रेय उवाच। इति ब्रुवाणम् नृपतिम् गायका मुनिचोदिताः तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया नालम् वयन्ते महिमानुवर्णने यो देववर्यो वततार मायया। वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमूर्धियः। अथाप्युदारश्रवसः पृथोर्हरे कलावतारस्य कथामृतादृताः। यथोपदेशम् मुनिभिः प्रचोदिता श्लाघ्यानि कर्माणि वयम् वितन्महि। एष धर्मभृताम् श्रेष्ठो लोकम् धर्मेऽनुवर्तयन् गोप्ता च धर्मसेतूनाम् शास्ता तत्परिपन्थिनाम्। एष वै लोकपालानाम् बिभर्त्येकस्तनौ तनूः काले काले यथा भागम् लोकयोरुभयोर्हितम्। वसुकाल उपादत्ते काले चायम् विमुञ्चति समस्सर्वेषु भूतेषु प्रतपन् सूर्यवद्विपुः। तितिक्षत्य क्रमम् वैन्य उपर्याक्रमतामपि भूतानाम् करुणशश्वदार्तानाम् क्षितिवृत्तिमान्। देवे वर्षत्यसौ देवो नरदेव वपुर्हरिः कृच्छ्रप्राणाः प्रजायेश रक्षिष्यत्यञ्जसेन्द्रवत्। आप्याययत्यसौ लोकम् वदनामृतमूर्तिना सानुरागावलोकेन विशदस्मितचारुणा। अव्यक्तवर्त्मै शनिगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः। अनन्तमाहात्म्यगुणैकधामा पृतुः प्रचेता इव संवृतात्मा। दुरासदो दुर्विषः आसन्नोऽपि विदूरवत् नैवाभिभवितुम् शक्यो वेनारण्युत्थितो नलः। अन्तर्बहिश्च भूतानाम् पश्यन् कर्माणि चारणैः उदासीनैवाध्यक्षो वायुरात्मेव देहिनाम्। नादण्ड्यम् दण्डयत्येष सुतमात्मद्विषामपि दण्डयत्यात्मजमपि दण्ड्यम् धर्मपथे स्थितः। अस्या प्रतिहतम् चक्रम् पृथो रामा न साचलात् वर्तते भगवानर्को यावत्तपति गोगणैः। रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः अथा मुमाहु राजानम् मनोरञ्जनकैः प्रजाः। दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः शरण्यः सर्वभूतानाम् मानदो दीनवत्सलः। मातृभक्तिः परस्त्रीषु पत्न्यामर्थैवात्मनः प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्मवादिनाम्। देहिनामात्मवत्प्रेष्ठः सुहृदाम् नन्दिवर्धनः मुक्तसङ्गप्रसङ्गोऽयम् दण्डपाणिरसाधुषु। अयम् तु साक्षात् भगवान् स्त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः। यस्मिन्न विद्या रचितम् निरर्थकम् पश्यन्ति नानात्वमपि प्रतीतम्। अयम् भुवो मण्डलमोदयाद्रैर्गोप्तैकवीरो नरदेवनाथः। आस्थाय जैत्रम् रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः। अस्मै नृपालाः किल तत्र तत्र बलिम् हरिष्यन्ति स लोकपालाः। मन्स्यन्त एषाम् स्त्रियादिराजम् चक्रायुधम् तद्यश उद्धरन्त्यः। अयम् महीम् गाम् दुदुहेधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम्। यो लीलयाद्रीन् स्वसरासकोट्या भिन्दन् समाम् गामकरोद्यथेन्द्रः। विस्फूर्जयन्नाजगवम् धनुः स्वयम् यदा चरत्क्ष्मामविषय्यमाजौ तदा निलिल्युर्दिशि दिश्य सन्तो लाङ्गूलमुद्यम्य यथा मृगेन्द्रः। एषोऽश्वमेधान् शतमाजहार सरस्वती प्रादुर्भावि यत्र अहारशीद् यस्य हयम् पुरन्दरः शतक्रतुश्चरमे वर्तमाने। एष स्वसद्मोपवने समेत्य सनत्कुमारम् भगवन्तमेकम्। आराध्य भक्त्या लभतामलम् तज्ज्ञानम् यतो ब्रह्म परम् विदन्ति तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः। शोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः। दिशो विजित्या प्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः। सुरासुरेन्द्रैरुपगीयमान महानुभावो भविता पतिर्भुवः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे षोडशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।